कृतशशिकलाभ्याम् निजतपःफलाभ्याम् भक्तेषु प्रकटितफलाभ्याम् भवतु मे शिवाभ्यामस्तोकत्रिभुवनशिवाभ्याम् हृदि पुनर्भवाभ्याम् आनन्दस्फुरदनुभवाभ्याम् नतिरियम्।